इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः एकादशवादने आकाशवाणीतः मन की बात इति कार्यक्रमे जनैस्सह स्वविचारान् वितरयिष्यति। इदम् आकाशवाण्याः मासिक कार्यक्रमस्य एकोनविंशत्यधिकैकशततमम् संस्करणम् भविष्यति। कार्यक्रमस्यास्य प्रसारणम् दूरदर्शन आकाशवाण्योः सर्वैः प्रसारतन्त्रैः प्रसारयिष्यते। श्रोतारः AIR न्यूज इत्यस्य वेबफलकात् न्यूज ऑन AIR इति चलदूरभाषीयतन्त्रांशादपि श्रोतुम् कार्यक्रममिमम् प्रभवन्ति। प्रधानमन्त्री नरेन्द्रमोदी अद्यारभ्य दिनत्रयं यावत् मध्यप्रदेश बिहार असम राज्यस्य च यात्रायां भविष्यति। यात्रावसरेऽस्मिन् सः अद्याह्वराह्णे मध्यप्रदेशस्य छत्तरपुरजनपदे बागेश्वरधाम चिकित्सा विज्ञानानुसन्धान संस्थानस्य आधारशिलां संस्थापयिष्यति। अत्याधुनिकयन्त्रादिभिः चिकित्सकैश्च परिपूरितेऽस्मिन् चिकित्सालये वञ्चितानां निर्धनसामान्यनागरिकाणां कर्कटरोगस्य निःशुल्कोपशमनं विधास्यते। अनेनैव सह प्रधानमन्त्री भोपालनगरे द्विदिवसीयस्य ग्लोबल् इन्वेस्टर्स् सम्मिट् 20-25 इत्यस्य उद्घाटनमपि करिष्यति। श्वः प्रधानमन्त्री बिहारस्य भागलपुरजनपदं गमिष्यति, यत्र सः PM किसान योजनायाः 19 पुटकं वितरिष्यति। सः तत्र विभिन्नानां विकासयोजनानां शिलान्यासम् उद्घाटनञ्च विधास्यति। तदनन्तरञ्च प्रधानमन्त्री झुमाईर बिनन्दिनी इति कार्यक्रमे भागग्रहणाय असमप्रान्तस्य गुवाहाटीनगरं प्रस्थास्यति। RBI इत्याख्यस्य केन्द्रीय अर्थकोषस्य प्राक्तनः प्रमुखः श्रीशक्तिकान्तदासः प्रधानमन्त्रिणः द्वितीयप्रमुखसचिवरूपेण नियुक्तो अजायत। अस्य नियुक्तिः प्रधानमन्त्रिणा नरेन्द्रमोदिना अनुमोदिता। तस्य नियुक्तिः प्रधानमन्त्रिणः कार्यकालं यावत् उतो वा अग्रिमादेशं यावत् भविष्यति। केन्द्रीय सहकारितामन्त्री अमितशाहः उक्तवान् यत् राष्ट्रेण सहकारिताभियानाय विशेष प्रोत्साहनं प्रदीयते। तेनोक्तं यत् राष्ट्रस्य प्रत्येकं जनः तस्य योग्यतानुसारं कार्यं लभेत्, तस्य संयोजनञ्च राष्ट्रविकासे भवेदिति लक्ष्यस्य सम्प्राप्तिः सहकारिता आन्दोलनेन एव सम्भवति। केन्द्रप्रशासनस्य सहयोगेन क्षेत्रमिदं गतवर्षत्रयेषु विशिष्टाम् उन्नतिम् अलभत्। सहकारी समूहस्य हीरकजयन्त्यावसरे जनता सहकारी कोषस्य पुणे शाखायां भाषमाणेन मन्त्रिणा ह्यः प्रोक्तं यत् अस्य केन्द्रीय पंजीयन कार्यालयमपि पुणे नगरे एव उद्घाटयिष्यते इति। साम्प्रतं यावत् पादोन 161 कोटितोऽधिकाः श्रद्धालवः प्रयागराजस्थे महाकुम्भमेलापके स्थाने गंगा यमुना सरस्वतीनां संगमे पवित्रावगाहनं कृतवन्तः। समग्रात् संसारात् आगम्यमानैः श्रद्धालुभिः ह्यः अपि 43,00,000+ पवित्रस्नानं कृतमिति। स्नानकृतवत्सु श्रद्धालुषु नैके ख्यातनामानः विशिष्टजनाः अपि आसन्। यथा केरलराज्यस्य राज्यपालः राजेन्द्र विश्वनाथ अर्लेकरः, भाजपेति दलप्रमुखः, केन्द्रीयमन्त्री च जगत् प्रकाश नड्डा, उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः, तमिलनाडु भाजपेति दलप्रमुखः के अन्नामलाई च। अन्ते क्रीडावार्तासु, ICC पुरुष चैम्पियन्स ट्रॉफी इत्याख्यायां क्रिकेट क्रीडा स्पर्धायां भारतस्य साम्मुख्यं चिरप्रतिद्वन्दिना पाकिस्तानेन सह दुबई नगरे अद्यापराह्णे भविता। आयोजनमिदं दुबई अन्ताराष्ट्रियो क्रीडांगणे भारतीय समयानुसारं मध्याह्ने 2:30 समारप्स्यते। अनुमीयते यत् क्रीडांगणं पूर्णतः जनसम्मर्देन परिपूरितं भविष्यतीति, यतोहि प्रवेशचिटिकाः पूर्वस्मादेव विक्रिताः सन्ति इति वार्ताः।